ॐ नमो भगवते वासुदेवाय। अथ अष्टमोऽध्यायः। अक्षरब्रह्मयोगः। अर्जुन उवाच, किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तमम्, अधिभूतं च किं प्रोक्तं अधिदैवं किमुच्यते, अधियज्ञः कथं कोत्र देहेऽस्मिन् मधुसूदनं, प्रयाणकाल च कथं ज्ञेयोऽसि नियतात्मभिः। श्रीभगवानुवाच, अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते, भूतभावोद्भवकरो विसर्गः कर्मसङ्गितम्, अधिभूतं क्षरो भाव पुरुषसाधिदैवतम्, अधियज्ञोऽहमेवात्र देहे देहभृदाम्बरम्, अन्तःकाले च मामेव स्मरन् मुक्त्वा कलेवरं जप्रयाति समद्भावं, जातीनस्त्यत्र संशय जं जं वापि स्मरन् भावं, त्यजत्यन्ते कलेवरं तं तमे वैतिकं तेय सोदा तद्भावभाविता, तस्मत् सर्वेषु कालेषु मामनुस्मरयुद्ध च मय्यर्पितमनोबुद्धि, मामे वैशेष संशयं अभ्यासयुगयुक्तेन चेतसानन्नगामिनां परमं पुरुषं दिव्यं जातिपार्थानुचिन्तयन्। कविं पुराणं अनुशासितारं अनुरणीयं समनुस्मरेत् जां सर्वस्य दातारं अचिन्त्यरूपं आदित्यवर्णं तमसः परस्तात्, प्रयाणकाले मनसा चलेन भक्त्या युक्तो योगबलेन चैव भ्रुवोर्मध्ये प्राणमवेश सम्यक् शतं परं पुरुषमुपैति दिव्यं, जदाक्षरं वेदविदो वदन्ति विशन्ति चतयो वीतरागा, जदीशन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये, सर्वद्वाराणि संयम्य मनहृदि निरुद्ध्य च मृध्नाध्यायात्मनः प्राणम् अस्तीतो योगधारणं, ओमीते काख्यरं ब्रह्म व्याहरन् मामनुस्मरन् जप्रयाति त्यजन् देहं स जाति परमं गतिं, अनन्न चेता सततं जोमं स्मरति नित्यश तस्याहं सुलभः पार्थ नित्यजुक्तैश योगिनां, मामुपेत्य पुनर्जन्मं दुःखालयमशाश्वतं, नाप्नुवन्ति महात्मानं संसिद्धिं परमङ्गतः। आब्रह्म भुवनाल्लोका पुनरावर्तिनोऽर्जुन, मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते, सहस्रजुगपर्यन्त महर्जद्ब्रह्मणो विदु रात्रिं युगसहस्रन्तां, ते होरात्रविदो जनः अव्यक्ताद्व्यक्तयः सर्वा, प्रभवन्त हरागमे रत्रागमे प्रलीयन्ते, तत्रैव व्यक्तसंज्ञके भूतग्रामः स एवायं, भूता भूता प्रलीयते रत्रागमे वसः पार्थं प्रभवत्य हरागमे, परस्तस्मासु भावन्नत् व्यक्तो व्यक्तात् सनातनं, यस्स सर्वेषु भूतेषु नश्यत्सु न विनश्यति, अव्यक्तोऽक्षर इत्युक्तः तमाहु परमं गतिं, नं प्राप्य न निवर्तन्ते तद्धाम परमं मम, पुरुषः स परः पार्थं भक्त्या लभ्य त्वनन्नया, यश्चन्तस्थानि भूतानि येन सर्वमिदं ततं, यत्र काले त्वनावृतिं आवृतिं चैव योगिनां, प्रयाता जन्ति तं कालं मख्यामि भरदर्शवम्, अग्निर्ज्योतिरः शुक्ला षण्मासा उत्तरायणं, तत्र प्रयात गच्छन्ति ब्रह्मं ब्रह्मविदोजनः, धूमो रात्रि तथा कृष्णं षण्मासा दक्षिणायनं, तत्र चन्द्रमसं ज्योति ज्योगी प्राप्य निवर्तते, शुक्लकृष्णें गतिहेते जगतः शाश्वते मते, एकया जात्यनावृत्ति मन्नया वर्तते पुनः, नैते श्रुति पार्थ जानन् योगी मुह्यति कैश्चन तस्पद सर्वेषु कालेषु जोगो जुगतो भवार्जुन वेदेषु यज्ञेषु तपसु चैव दानेषु यत्पुण्यफलं प्रदीष्टम् अत्येति तत्सर्वमिदं विदित्वा योगी परं तानमुपैति चाद्यं ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे अक्षरब्रह्मयोगो नाम अष्टमोऽध्यायः ॐ श्रीकृष्णार्पणमस्तु शुभं भवतु शुभं भवतु शुभं भवतु।